नमस्सर्वेभ्यः अद्य परमलघुमञ्जूषायाः सप्तदशः पाठः जून् मासस्य अष्टाविंशः दिनाङ्कः अद्य वयं धात्वर्थविषये वैयाकरणानां कस्सिद्धान्तः वैयाकरणमतरीत्या कथं शाब्दबोधः भवति अस्मिन् विषये दर्शनान्तरीयाणां मीमांसकानां नैयायिकानां च किं मतम् इत्येतान् विषयान् परिशीलयामः येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं शिवन्नत्वा हि नागेशेनानिन्द्या परमालघुः वैयाकरणसिद्धान्तमञ्जूषैषा विरच्यते धात्वर्थप्रकरणस्य पीठिकारूपेण गतवर्गे धात्वर्थविषये वैयाकरणानां किं मतम् इति दृष्टवन्तः तत्र प्राधान्येन अयमंशः परिशीलितः फलं तदनुकूलव्यापारश्च धात्वर्थः यदा काचित् क्रिया भवति तदा तस्याः क्रियायाः किञ्चित् फलं निष्पाद्यते तत् फलं तज्जनकम् अथवा तदनुकूलः सर्वोऽपि व्यापारः धातुना बोध्यते इति वैयाकरणानां मतम् यथा पचिधात्वर्थः विक्लिप्तिः पचिधातुना फलं सिद्ध्यति विक्लिप्तिः द स्टेट् आफ् बीङ्ग् कुक्ड् तदनुकूलः व्यापारः सर्वोऽपि इट्स् नाट् वन् सो विक्लिप्तिं जनयितुम् अनुकूलः यः यः व्यापारः सो एव्रिथिङ्ग् फ्रम् लैटिङ्ग् अ स्टव् टु पुट्टिङ्ग् अ वेसल् आन् द स्टव् टु पुट्टिङ्ग् द say adding water, stirring, whatever. So, विक्लित्यनुकूलः व्यापारः पचिधातोरर्थः इत्युच्यते एवं गमधात्वर्थः उत्तरदेशसंयोगानुकूलः व्यापारः सो फार् अस् टु यूस् द धातु गम् देर् नीड्स् टु बि मूवमेण्ट् फ्रम् वन् प्लेस् टु अनदर् ओके इट् कुड् बि जस्ट् say it could be to the next house or it could be to a different city whatever uttaradeshah so some a different place than the initial place so arambha deshah asti uttaradeshah asti tat sanyogah uttaradesham praptum yaha yaha vyaparah sahyakrit saha sarvopi gamadhatuna bodhyate evam uttaradesha sanyoganukulah vyaparah gamadhator arthah छिनत्ति इति प्रयोगः छिद् धातुः छिरद्वैधीकरणे इति द्वैधीभवनानुकूलः व्यापारः सो द रिसल्टेण्ट् आफ् छिद् इस् संथिङ्ग् बीङ्ग् स्प्लिट् आर् कट् सो एनिथिङ्ग् विच् हेल्प्स् दट् इस् द व्यापार आफ् छिनत्ति एवं सर्वेषामपि धातूनां अर्थद्वयं विद्यते इति वैयाकरणानां मतम् अस्ति इत्यादीनामपि इवन् संथिङ्ग् लैक् भवति और् अस्ति तत्र सत्तारूपं फलं सो द फल देर् इस् जस्ट् एक्सिस्टेन्स् सो बीङ्ग् देर् इस् द फल तदनुकूलः व्यापारः एण्ड् वी मेण्टेन् दट् देर् ईस् अ व्यापार विच् इस् रिक्वैर्ड् फार् एक्सिस्टिङ्ग् अतः सत्तानुकूलः व्यापारः असुधातोरर्थः सर्वेषामपि धातूनां अर्थद्वयं फलं व्यापारश्च इति वैयाकरणानां सिद्धान्तः तर्हि तिङ् प्रत्ययस्य कः अर्थः यत्र वयं प्रयोगं कुर्मः केवलस्य धातोः प्रयोगः न भवति धातुः भवति धातोः द्विविधाः प्रत्ययाः भवन्ति तिङ् प्रत्ययाः तथा कृत् प्रत्ययाः कृत् प्रत्ययानां विषये विवादः नास्ति यतोहि कर्तरि कृत् इति पाणिनिना एव कण्ठरवेण उद्घुष्यते तत्र कर्त्रर्थः भवति यथा पाठकः इत्यादिते औत्सर्गिकः कर्त्रर्थः कृत् प्रत्ययानां तत्र तत्र अन्येऽपि अर्थाः सूत्रेणैव उक्ताः अतः ते सर्वे अर्थाः भवन्त्येव इत्यत्र सन्देहः नास्ति
किन्तु तिङ् प्रत्ययानाम् अर्थस्य विषये मतभेदः महान् विद्यते. वैयाकरणसिद्धान्ते तिङ् प्रत्ययेन यत्र यत्र तिङ् प्रत्ययः धातुभ्यः योज्यते तत्र त्रयः अर्थाः बुध्यन्ते. कर्ता अथवा कर्म, संख्या, कालश्च. अस्माकं सूत्रमेव अस्ति लः कर्मणि च भावे च अकर्मकेभ्यः. लकाराः सकर्मकेभ्यः धातुभ्यः कर्तरी कर्मणि च स्युः, अकर्मकेभ्यः भावे कर्तरी च. अतः यदि सकर्मकधातुः तर्हि कर्तरिप्रयोगे तिङ् प्रत्ययेन कर्ता बोध्यते, कर्मणि प्रयोगे तिङ् प्रत्ययेन कर्म बोध्यते. सर्वदा संख्या भवति, कालः अपि भवति. अतः कर्तृकर्मसङ्ख्याकालाः तिङर्थाः इति वैयाकरणसिद्धान्तः. यथा पचामि इति प्रयोगः क्रियते, तत्र पच् इति धातुः अस्ति, मिप् इति तिङ् प्रत्ययः अस्ति. पच् धातुना विक्लित्यनुकूलः व्यापारः, विक्लित्तिः तदनुकूलव्यापारश्च इति अर्थद्वयम् उच्यते. मिप् इति प्रत्ययेन वर्तमानकालः, अयं लट्लकारस्य प्रत्ययः, अतः वर्तमानकालः ज्ञायते. एकत्वसङ्ख्या ज्ञायते. कर्ता पचामि इत्युक्ते तत्र कर्ता अहमेव इति अस्मदभिन्नः कर्ता, मि आर् मदभिन्नः कर्ता. सो इट् जस्ट् मीन्स् मी. ओके, द वर्ड् अभिन्न इस् जस्ट् यु नो अ टेक्निकल् फ्लेर् आफ् द लाङ्ग्वेज्. इट् जस्ट् मीन्स् ऐ एम् द कर्ता. सो प्रत्ययेन वर्तमानकालः, एकत्वसङ्ख्या, कर्ता च बोध्यते. So, according to Vaiyakaranas, the dhatu here conveys the meaning of viklitti and all action which helps in viklitti, whereas the pratyaya gives the meanings of the present tense, singular number, and the karta being me. So, bachami ityukte eva ete sarvepi arthaha jnayante uchyante dhatuna pratyayena cha ete arthaha uchyante. एवं पच्यन्ते इति प्रयोगः. पच् धातुः झ इति प्रत्ययः, तत्र पच् धातुना विक्लित्यनुकूलः व्यापारः इत्यर्थः. झ इति प्रत्ययः, सः कर्मणि प्रत्ययः अस्ति, पच्यन्ते इति. तत्रापि वर्तमानकालः ज्ञायते. बहुत्वसङ्ख्या त आताम् झ इति बहुवचनप्रत्ययः, अतः बहुत्वसङ्ख्या ज्ञायते. कर्म च ज्ञायते. सो किं पच्यन्ते अथवा के पच्यन्ते इति पृष्टे तण्डुलाः पच्यन्ते, शाकानि पच्यन्ते इत्यादि कर्मवाचकम् एव उत्तरं भवति. सामानाधिकरण्यं कर्मणा भवति, न तु कर्त्रा. अतः कर्म ज्ञायते. So we might not know what is the specific identity of the karma, but we do know that the karma is something which is other than you and me. Okay. Evam karta athava karma sankhya kalashcha tingarthaha. Kartra karma sankhya kalaha tingarthaha phalavyaparau dhatvarthaha iti vayyakarana. Tarhi पचामि इत्युक्ते अथवा पच्यन्ते इत्युक्ते एतावन्तः अर्थाः उपस्थिताः भवन्ति, तेषां परस्परम् अन्वयः कथम्? एतत् स्मर्तव्यम् अस्माभिः यदा बोधः भवति परस्पर अन्वितया एव बोधः भवति. वि डु नाट् अण्डर्स्टाण्ड् आल् दीस् सेपरेट्लि, रैट्? ऐ मीन् दीस् आर् नाट् फैव् सेपरेट् एण्टिटीस्. वेन् वि अण्डर्स्टाण्ड् देम् एज़् वन् होल्, a single whole entity where they are related to each other. Sarvada tathaiva vakye bahuni padani bhaveyuh, kintu sarvesham militanam paraspara annitanam eva bodhah bhavati. Vakya deva shabda bodhah asmabhi drishtam sphote akhanda vakyam eva siddhantah. Vakya deva artha bodhah bhavati natu prathak padaihi nava tadavayavaihi. So it is the whole sentence that we understand, where we might understand each word, but the meaning that we actually get is something which is related. So all the meanings of the different words come together and relate, and then we understand it. Say Ramaha patham patati. सो विनो रामः इति पदेन राम पाठः पठति सो वी हैव एन एक्शन वी हैव अ पाठ एंड वी हैव राम सो वी डोंट अंडरस्टैंड देम इंडिविजुअली वी अंडरस्टैंड देम सेइंग दैट देयर इज एन एक्शन कॉल्ड ऑफ रीडिंग which is being performed by Rama with the lesson as the object. So the whole related meaning is what we get. Okay? That is called Shabda Bodha. Shabda Bodha ityukte sayeva. Katham paraspara anvayaha bhavati padarthana. Atra idani kriyapadam tingantam yatra upayujyate. Tatra dhatuhu asti. Ting athava akhyata pratyaha asti. Dhatuna phalam vyaparaha इति अर्थद्वयं बोध्यते तिङ् प्रत्ययेन अथवा आख्यात प्रत्ययेन कर्ता अथवा कर्म संख्या कालः इत्येते अर्थाः बोध्यन्ते कथं तेषां परस्परान्वयः इति चेत् वैयाकरणमते व्यापारः प्रधानम् सो द मोस्ट इम्पोर्टेंट पार्ट ऑफ ऑल दीस इज द व्यापार अंटे व्यापार मुख्य विशेष्यक शाब्दबोधः इत्युच्यते कः अर्थः व्यापार इज द फाइनल एंटिटी वी अंडरस्टैंड द होल थिंग एज एन एक्शन सो टू दिस एक्शन वी रिलेट द अदर आइटम्स सो व्यापार प्रधानः अन्येषां कथम अन्वयः भवति फलम व्यापारे अन्वेति सो वी हैव ऑलरेडी सीन सो विक्लित्तिः फलम व्यापारः विक्लित्यनुकूलः व्यापारः सो द पथधातुः यत्र अस्ति देयर वी अंडरस्टैंड इट एज एक्शन विच फेसिलिटेट्स विक्लित्ति सो एक्शन इज प्रधान व्हाट काइंड ऑफ एन एक्शन दैट विच फेसिलिटेट्स विक्लित्ति सो विक्लित्यनुकूलः व्यापारः इत्येवं फलस्य व्यापारे अन्वयः कर्ता अस्ति कर्तुः अपि व्यापारे एव अन्वयः कर्त्राश्रयः सो यदि अहं पचामि मदाश्रयः व्यापारः सो अ व्यापार विच फेसिलिटेट्स विक्लित्ति एंड विच इज परफॉर्म्ड बाय मी परफॉर्म्ड बाय यू और परफॉर्म्ड बाय चैत्र somebody अतः कर्तुः व्यापारे अन्वयः बिकॉज द एक्शन ऑलवेज रिसाइड्स इन द कर्ता Kartari eva vyaparaha drishyate. So that in which we have vyapara is called the karta. That is the definition of the karta. So whatever you say, gachyati. So kaha gachyati? Yaha vyaparam acharati. He who performs the action which leads him to reach a different place. He is called the karta. So what is gachyati? It is the action which facilitates reaching a different place and performed by a particular karta, an agent or the doer. Kartuhu vyapare anvayaha. But when we come to the karma, so what is karma related to? Say karma, for example, tandula. Say tandulan pachati. He cooks rice. So what is tandula related to? It is not directly related to the action of cooking. Say, when I talk of the action of cooking, whether it be lighting of the fire or stirring or adding water, the tandula is not associated with any of these. Right? So it is not associated with vyapara. So what then is it associated with? Karma phale anveti. Viklittihi. It is the state of being cooked. The phala is always seen in the karma. Just like the vyapara is seen in the karta, phala is always seen in the karma. Right? Any phala, say, if you say dvaidhi bhavanam, chinati, dvaidhi bhavana is being split. So where do you see the split? You see it in the karma. Say vriksham chinati. So vriksha shows the split. Or say vastram chinati. So it is the vastra which shows the split. So the phala is always found in the karma. Vyaparaha kartari phalam karmani. Okay, vyaparashrayaha karta, phalashrayaha karma. Ataha karmanaha phale anvayaha. So the karma will not relate direct, it will relate to vyapara but not directly through the phala. So karmanaha phale anvayaha, phalasya vyapare anvayaha. संख्या संख्यायाः कुत्र अन्वयः यथा पचामि पचामः इत्यस्ति pasamaha ityatra bahuvachana pratyayah. You see the plural. So what is plural? Is the action plural? Vyaparaha. See, vyapara is always singular. Even though the vyapara always has many components. So pachati, as I said, pachati iti vyapare bahvyaha avantarakriyaha santi. Yatha kashthajvalanam, adhishrayanam, udakasechanam ityadi avantarakriyaha bahvyaha bhavanti. Tathapi kriya eka eva. So kriya is always perceived as one. Even though it might have component actions, we perceive it as one action wholly. Ataha, the bahutva sankhya vyapare nanveti. So in that case, what about pachami? So pachami ityatrapi tadeva kila. So you have singular and plural. In both cases, the action is the same. So it cannot refer to the vyapara. So what does it refer to? The phala is also the same. Vikliti, there is no difference. Kutra anveti, kartari anveti. Pachamaha, ityukte, vayam pachamaha. The people who are cooking are plural. Right? But if you say pachyante, ke pachyante, tandulaha pachyante. Say tandulam, tandulaha pachyate, tandulaha pachyante. Ityevam, sankhya, kartari, athava, karmani anveti. So, kartari prayoge, sankhya, kartari anveti, karmani prayoge, karmani anveti. So, the number which is given by the pratyaya, it is associated with the karta, if it is a kartari prayoga, and it is associated with the karma, if it is a karmani prayoga. Kalaha. Kalaha kutra anveti, say vartamana kalaha, bhuta kalaha, bhavishyat kalaha, ityasti. So, kutra anveti kalaha. Where does the kala associate itself with? Does it also go to the karta? Kalaha kartari anveti va, iti cheta, nanveti. Kimartham, if I say aham apacham or aham apaksham, I cooked. Does it mean that I am bhutakala, that I am past, I do not exist now? I do exist now. Even when the karta is present, you can use the bhutakala. Or aham pakshyami, I will cook sometime in the future. I am here, I am already there. I will cook in the future. So, the kala is referring to the vyapara. Kada vyapara bhavati. It does not even relate to phala. Because, say I am just lighting the stove, where the vikliti, the phala is in the future. Kintu prayogaha katham kriyate. Aham pachami, I am cooking. Iti vartamana kala chayo prayogaha kriyate. Tatra vyapara asti, phalam itopi na jatam. Ataha kalasya vyapare anmayaha. So very logically the kala will associate itself with vyapara. Evam phalasya vyapare anmayaha, kartuhu vyapare anmayaha, kalasya vyapare anmayaha. Karma phale anmeti, sankhya kartari prayoge kartari, karmani prayoge karmani anmeti. Ityevam upasthitanam arthanam paraspara sambandha jnatavyah. So when we talk of say pachami, what is pachami? Pachami is action. That is the main meaning which we get out of the word is action. The action, what kind of an action? That which facilitates cooking. That which is viklitti. That which facilitates viklitti. That which is being performed by me, that which is present. So, a present tense action performed by me, which facilitates vikriti. Okay. So, that is the meaning we get out of a word pachami. Pachami ityanena tadrishaha arthaha budhyate. Tatra vyaparaha pradhanyena budhyate. So, everything else is related either directly or indirectly to vyapara. So, phala, karta and kala are directly related to vyapara. So, karma is related through the phala and sankhya is related through the karta or the karma, not directly. Okay. So, एवं परस्पर सम्बन्धः यदा ज्ञायते ततः शाब्दबोधः वक्तव्यः. सो शाब्दबोध इज अ वेरी टेक्निकल टर्म विच इज यूज्ड इन थियोरिटिकल डिस्कशन. कः शाब्दबोधः नाम कः? शब्दप्रमाणेन यद् ज्ञानं जायते सः शाब्दबोधः. सो एनी नॉलेज दट वी गेट आउट ऑफ शब्दस वर्ड्स इज कॉल्ड शाब्दबोध. वॉट इज द nature or the structure of the Shabdabodha? What is it that we understand when we hear a word or a sentence? So, it is the whole meaning. As I said, it is what we understand as a whole, relating all the meanings. Yaha yaha arthaha shabdaihi upasthapyate saha sarvopi parasparam anvayam prapya buddhau bhasate. सो एकः अखण्डः अर्थः भासते, स एव शाब्दबोधः इत्युच्यते. सो वेन् वी टाक् आफ् शाब्दबोध इट् इस् एक्चुलि ज्ञान. सो द नालेज् विच् अरैजस् औट् आफ् शब्द, बट् शाब्दबोधं वदति इति प्रयोगः अस्ति. सो न्यायशास्त्रे भवति, मीमांसायां भवति, व्याकरणे भवति. सो वट् इस् द मीनिङ्ग् आफ् टेलिङ्ग् अ शाब्दबोध? इट् इस् पुट्टिङ्ग् इन् वर्ड्स् दिस्. Okay, the relation of the meanings which are present. Okay, so it's a very technical term. Katham bhavati iti pashyamaha. Katham vaktavyam, shabdabodha katham uchyate. So, tingantasthale, vyapara mukhya visheshyatah shabdabodha. Purvam uktam, yatra yatra tingantasya prayogah bhavati, tatra vyaparasyaiva pradhanyam. कृदन्तस्थले तु कर्तुः प्राधान्यम्. पाचकः इत्युक्ते पाककर्ता, विक्लित्यनुकूल व्यापारस्य कर्ता इत्यर्थः प्राधान्येन बोध्यते. सो वेन् वी टाक् आफ् अ कृदन्त लैक् पाचक, देर् द प्राधान्य इस् फार् द कर्ता. फ्रम् इट् वी अण्डर्स्टाण्ड् द डूयर् आफ् एन् एक्शन् विच् फेसिलिटेट्स् विक्लित्ति. Whereas if I say pachati, we understand an action performed by a doer and which facilitates viklitti. So the focus is different. So in kridantas, the focus is on karta or karma or whatever, depending on the kind of kridanta. Tingantas thale tu vyapara mukhya visheshyakah shabdabodhah. Phalam vyaparasya dhatvarthah. Tatra vyaparah pradhanam. So, between phala and vyapara, vyapara takes precedence. It is the most important. Dhatvartha phalam, akhyatarthaha karta kalascha vyaparam prati visheshanam. This is just putting in words what we saw in the previous slide. Purvatra yadrishtam tadeva padaihi uchyate. Kim uchyate? Dhatvartha phalam, vyaparam prati visheshanam. Dhatvarthaha phalam. तत् कुत्र अन्वेति? व्यापारे अन्वेति. आख्यातार्थः अथवा तिङर्थः कर्ता, व्यापारं प्रति विशेषणम्. तिङर्थः कालः, व्यापारं प्रति विशेषणम्. दट् इस् एक्साक्ट्लि वाट् वी सा हियर्. त्री डिरेक्ट् एरोस् लीडिङ्ग् टु व्यापार. धात्वर्थः फलम्, तिङर्थः कर्ता, तिङर्थः कालश्च व्यापारे विशेषणम्. अग्रे आख्यातार्थः कर्म फलं प्रति विशेषणम्. सो आख्यातेन तिङ् प्रत्ययेन यत्र कर्म उच्यते तत्तु फलं प्रति विशेषणं भवति. सो इट् असोसियेट् इट् सेल्फ् वित् द फल. आख्यातार्थः संख्या, कर्तुः कर्मणः वा विशेषणम्. सो द संख्या अगेन् इस् आख्यातार्थ. इट् रिलेट्स् इट् सेल्फ् टु ईदर् द कर्ता आर् द कर्म. तर्हि शाब्दबोधः कथं भवति इति उदाहरणद्वारा पश्यामः. पचामि इत्यस्ति. के के अर्थाः अत्र उपतिष्ठन्ते? धातुना विक्लित्तिरूपं फलं, तदनुकूलः व्यापारः इति अर्थद्वयं द्वयं धातुना बोध्यते. कर्तरिप्रयोगः, अतः कर्ता, मदभिन्नः कर्ता. सो ऐ एम् द कर्ता. सो दट् इस् गिवन् बै द प्रत्यय. प्रत्ययेन कर्ता. एकत्वसङ्ख्या, सो द नम्बर् हियर् इस् सिङ्ग्युलर्. वर्तमानकालश्च उच्यते. एवं पञ्च अर्थाः उपतिष्ठन्ते. तर्हि शाब्दबोधः कथं भवति? किं प्रधानम्? व्यापारः प्रधानम्. सो वी हेव् सीन् दट् व्यापार इस् प्रधान. सो टु व्यापार वी नीड् टु रिलेट् द अदर् थिङ्ग्स्. कथम् उच्यते? विक्लित्यनुकूलः. So the first meaning is viklitti, which relates to vyapara. Viklityanukulaha vyaparaha. Okay. Anantaram karta. So kartrashrayaha. Madabhinna kartrashrayaha vyaparaha. So an action which is present in the doer, which is me. So I am the doer. Madabhinnaha karta. Madabhinna kartrashrayaha vyaparaha. And the sankhya. What does the sankhya relate to? It relates to the karta, right? So, ekatra sankhyavachinna madabhinna kartrashrayaha. So, it is within the karta. So, ekatra sankhya iti, it is not directly to vyapara. It relates to karta and then to the vyapara. Vartamana kalaha. So, that is also directly related to vyapara. So, whatever in the first level directly relates to vyapara, whereas the second level relates to what is above it. So, evam vyaparaha, viklityanukulaha, madabhinna kartrashrayaha, vartamana kalikaha, sankhyatu kartari anveti. Okay. So, this avachinna, ashraya, they are all technical terms which are used for conveying this. Say avachinna does not mean anything. It is just associated with or attributed or endowed with the attribute of singular number. What is endowed? A karta. A karta who is endowed with the attribute of singular number, which means a singular karta. So there is nothing difficult. They are just paribhashika padani tathaiva vaktavyam iti paddhati. Okay, conventionally used. So how do we put these together? We just put these together in the order. So finally ending with vyapara. So remember that what is the innermost level comes first and the outermost level comes last. So vyaparaha ante bhavati. So to vyapara we have three visheshanas and to this we have this. Okay, so we will start from here. So viklityanukulaha. So madabhinna kartrashrayaha. But that itself has a visheshana. So, ekatva sankhyavachinna madabhinna kartrashrayaha vartamana kalikaha vyaparaha. So, this is how we do the shabdabodha. So, vyaparaha ante asti kidrishaha saha viklityanukulaha madabhinna kartrashrayaha vartamana kalikaha. So, next level we have ekatva sankhyavachinna which goes before the karta. So, viklityanukulaha ekatra sankhyavachinna madabhinna kartrashrayaha vartamana kalikaha vyaparaha iti vayyakaranamate shabdabodhaha. This is what we call the shabdabodha according to the vayyakaranas. Spashtam, any questions? द्वितीयम् उदाहरणं पश्यामः. दृश्यसे इत्यस्ति. कः अर्थः? यू आर् सीन्. त्वं दृश्यसे. बै होम् कर्ता नोक्तः. सो द एजेण्ट् इस् नाट् स्पेसिफैड्. सो इट् जस्ट् मीन्स् यू आर् सीन्. अत्र के के अर्थाः उपतिष्ठन्ते? एनिबडी वाण्ट्स् टु वालण्टियर्? वाट् आर् द मीनिङ्ग्स् दट् वी गेट् औट् आफ् दिस्? कोऽपि वक्तुमिच्छति? ऐ विल् हेल्प्. यस् जून्
नमस्ते. सो युष्मत् कर्म
यस्
कर्म तत्र संख्या
का संख्या?
संख्या तत्र एकत्वम्
एकत्र संख्या
एकत्र संख्या कालः वर्तमानकालः
सम्यक्
तत्र दर्शनानुकूलव्यापारः
सम्यक्. सो दर्शनं फलं तदनुकूलः व्यापारः कर्म त्वदभिन्नः मध्यमपुरुषः अस्ति अतः त्वम् इति कर्म. सो कर्मणि प्रयोगः कर्म उच्यते त्वदभिन्नः कर्म और त्वदभिन्नं कर्म एकत्व संख्या वर्तमान कालः इत्येवं अर्थाः अनेन बुध्यन्ते कथं शब्दबोधः can you try
एकत्वावच्छिन्नं
No. Let's go step by step. Step by step. So what is first? Pradhanah.
Pradhanah. Vyapara.
Vyapara. Pradhanah. So kidrishah vyapara.
Darshananukula vyapara.
Darshanam phalam taranukula vyapara.
Vyapara. Tadanantaram twada bhinna karmakah.
Is it vyapara? Where does it relate to?
The karma relates to the phala.
Phala. So, tada bhinna karmashrayam darshanam. So, the phala is in tvam. So, tada bhinna karmashrayam darshanam. Next. Sankhya.
Sankhya also relates to the karma.
Sankhya relates to the karma. Right? So, karma relates to phala, sankhya relates to karma. So, it's one further. तो एकत्व संख्यावच्छिन्न त्वदभिन्न कर्माश्रयं दर्शनं तदनुकूलः व्यापारः कालः
कालः व्यापारे अन्वेति
व्यापारे सो वी कम बैक टू द फर्स्ट लेवल वर्तमानकालिकः व्यापारः सो दर्शनानुकूलः वर्तमानकालिकः व्यापारः नो द कंप्लीट शब्दबोध
एकत्व संख्यावचिन्न त्वदभिन्न कर्माश्रय वर्तमानकालिक दर्शनानुकूल व्यापार
सो कर्माश्रयम् दर्शनम् सो यू हैव टू गो टू द दर्शन
कर्माश्रय
फिनिश दैट एंड देन काल इट्स सो एकत्व संख्यावचिन्न त्वदभिन्न कर्माश्रयम् यत् दर्शनम् सो वी हैव टू फिनिश दैट लेवल तदनुकूलः वर्तमानकालिकः व्यापारः सो इट् इस् व्यापार विच् इस् आफ् द प्रेसेण्ट् टेन्स् एण्ड् विच् फेसिलिटेट्स् दर्शन सो दर्शन इस् इन् द कर्म विच् इस् यू दर्शन इन् द कर्म काल्ड् यू विच् इस् हेज् द सिङ्ग्युलर् नम्बर् सो एकत्वसङ्ख्यावच्छिन्न त्वदभिन्न कर्माश्रयं यत् दर्शनं तदनुकूलः वर्तमानकालिकः व्यापारः इति शब्दबोधस्य क्रमः थैंक यू वेरी नाइस क्लियर सो वी हैव टू गो स्टेप बाय स्टेप एंड ऑलवेज लेवल बाय लेवल सो वॉट एवर इज द इनर मोस्ट लेवल विल कम फर्स्ट बिकॉज इट इज द विशेषण सो एकत्व संख्या अवच्छिन्न इज फर्स्ट देन द नेक्स्ट लेवल देन द आउटर लेवल सो वी फिनिश द आउटर लेवल एंड देन कम टू द outer most level which is the vyapara so vyaparah pradhanam that is the most important thing so everything else should relate somehow to vyapara you can have only one outer most level you cannot have multiple right so there is only one within it you can have any number of levels okay so idop ekam udaharanam pashyamaha gramam agachhama okay सो ग्रामम् अगच्छाम कः अर्थः वी वेंट टू अ विलेज सो वी आर एडिंग अनदर वर्ड द कर्मपद सो वी हैव टू सी व्हाट आर द मीनिंग्स आउट ऑफ ईच वर्ड अत्र अगच्छाम इति तिङन्तम् अस्ति सो तिङन्तेन के अर्थाः बोध्यन्ते उत्तरदेश संयोगः फलम् तदनुकूलः व्यापारः अस्मदभिन्नः कर्ता सो अगेन् वी हेव् द उत्तम पुरुष सो दट् इस् द कर्ता कर्तरि प्रयोगः बहुत्वसङ्ख्या अनद्यतनभूतकालः लङ्लकारः अनद्यतनभूते अतः अनद्यतनभूतकालः व्यापारः ओके एवं पञ्च अर्थाः अगच्छाम इति तिङन्तेन उच्यन्ते सो द तिङन्त इत्सेल् धातोः फलं व्यापारश्च अर्थः कर्ता संख्याकालश्च तिङर्थः एवम् अगच्छाम इति तिङन्तेन पञ्च अर्थाः उच्यन्ते ग्रामम् इति कर्मपदम् तेन किमुच्यते ग्रामाभिन्नं कर्म. सो तत्र द्वितीया विभक्तिः अस्ति. द्वितीया विभक्त्या कर्मत्वम् उच्यते. सो ग्रामाभिन्नं कर्म. सो वी नो दट् ग्राम इस् द आब्जेक्ट् बिकास् आफ् द द्वितीया विभक्ति. वि विल् नाट् नो थ्रू द तिङन्त. सो ग्रामाभिन्नं कर्म. ततः एकत्र सङ्ख्या. अत्रापि सङ्ख्या अस्ति. द्वितीया एकवचनप्रत्ययः. अतः एकत्र सङ्ख्या. सो दिस् सङ्ख्या विल् रिलेट् टु द कर्म. दिस् सङ्ख्या रिलेट्स् टु द कर्त. दिस् सङ्ख्या रिलेट्स् टु द कर्म. एवम् अगच्छाम इत्यनेन पञ्च अर्थाः. ग्रामम् इत्यनेन अर्थद्वयं बुध्यते. शाब्दबोधे सर्वमपि योजनीयम्. सो वी हेव् टु रिलेट् एव्रिथिङ्ग् इन् द शाब्दबोध. सो देर् इस् नथिङ्ग् न्यू. वि नो दट् कर्म रिलेट्स् टु द फल. दिस् सङ्ख्या रिलेट्स् टु द कर्म. सो वि नो द रिलेशन्शिप्स् आल्रेडी. कथं वक्तव्यम्? सो आदौ ग्रामम् अगच्छाम इत्यस्ति. व्यापारः प्रधानम्. सो द फस्ट् थिङ्ग् इस् व्यापार. कीदृशः व्यापारः? उत्तरदेशसंयोगः फलं तदनुकूलः व्यापारः. सो उत्तरदेशसंयोगः फलं. फले कस्य अन्वयः? कर्मणः अन्वयः. सो ग्रामाभिन्नकर्माश्रयः संयोगः. सो द उत्तरदेशसंयोग इस् इन् द कर्म. ग्रामाभिन्नकर्माश्रयः संयोगः. एण्ड् द सङ्ख्या इस् एकत्वम् आन् द कर्म. सो कर्मणः एकत्वसङ्ख्या. सो एकत्वसङ्ख्यावच्छिन्न ग्रामाभिन्नकर्माश्रयः उत्तरदेशसंयोगः तदनुकूलः व्यापारः. ओके. सो नौ वी आर् कम् टु द वन् पार्ट् विच् इस् द फल. सो ततः कर्ता अस्ति. कः कर्ता? अस्मदभिन्नकर्त्राश्रयः. सो वयम् इस् द कर्ता. सो अस्मदभिन्नकर्त्राश्रयः. कर्तरि तिङर्थसङ्ख्या. सो दट् सङ्ख्या आन् द तिङ् प्रत्यय इस् बहुत्वम् विच् रिलेट्स् टु द कर्ता. अतः बहुत्वसङ्ख्यावच्छिन्न अस्मदभिन्नकर्त्राश्रयः व्यापारः. पुनश्च कालः व्यापारे अन्वेति अनद्यतनभूतकालिकः. Right? So we have the phala, karta, kala directly relating to vyapara, sankhya relating to the karta, the sankhya of the thing pratyaya. So the sankhya of the dvitiya vibhakti relating to the karma, karma relating to the phala. Okay. So idanim kaha shabda bodhaha, kaschit vadati. So we have everything here. We just have to put that in the form of a sentence. यः उत्तरदेशसंयोगः तदनुकूलः. सम्यक्. सो इट् जस्ट् गोयिङ्ग् फ्रम् द इनर्. सो एकत्वसङ्ख्यावच्छिन्न ग्रामाभिन्नकर्माश्रयः यः उत्तरदेशसंयोगः तदनुकूलः. बहुत्वसङ्ख्यावच्छिन्न अस्मदभिन्नकर्त्राश्रयः अनद्यतनभूतकालिकः व्यापारः इति शाब्दबोधः. इट् सौण्ड्स् वेरि धन्यवादः. सो इट् सौण्ड्स् लाङ्ग् एण्ड् काम्प्लिकेटेड् इफ् वि गो डिरेक्ट्लि, बट् इट् इस् नथिङ्ग् बट् taking the different meanings and relating them correctly. Kasya kutra anvayaha iti nishtayaha bhavet. Saha nishtayaha nasti chet shabdabodhaha vaktum na shakyate. Okay. So agre antimam ekamudaharanam pashyamaha. Chaitraha vrikshan chetsyati. Chinatti chetsyati bhavishyat kale. So Chaitra will cut the trees. चैत्रः कर्ता, वृक्षाः कर्म, छेत्स्यति इति क्रिया. सो अत्र के अर्थाः सन्ति, तेषां कथं परस्पर अन्वयः? सो छेत्स्यति इति क्रियापदम्. तिङन्तं, तिङन्तेन के अर्थाः? ద్వైధీభవనం ఫలం తదనుకూల వ్యాపార కర్త కర్తరి ప్రయోగ అత కర్త కీదృశ కర్త ఏకత్వ సంఖ్యావచ్ఛిన్న సో ఏకత్వ సంఖ్యా భవిష్యత్ కాల సో కర్త సంఖ్యా కాలశ్చ తిం ప్రత్యయేన ఫలం వ్యాపారశ్చ ధాతునా ఉచ్యతే చేత్సతి ఇది తింగంతస్య ఏతే అర్థాః వృక్షాన్ ఇది పదమస్తి తత్ర ద్వితీయా విభక్త్యా కర్మ ఉచ్యతే వృక్షాభిన్నం కర్మ పునశ్చ బహుత్వ సంఖ్యా ఉచ్యతే సో యు హావ్ ద కర్మ అండ్ ద సంఖ్యా ఫ్రమ్ ద విభక్తి చైత్రః సో చైత్రః ఇత్యత్ర ప్రథమా విభక్తిః సో ప్రథమా విభక్తి ఇండికేట్స్ ఓన్లీ ద ప్రాతిపదికార్థ ప్రాతిపదికార్థ మాత్రే ప్రథమా రైట్ సో ఇట్ డస్ నాట్ ఇండికేట్ కర్త కర్త అత్ర అస్తి తింగా ఏవ జ్ఞాయతే సో చైత్ర అభిన్నః సో ప్రథమ ఇస్ ఆల్వేస్ తింగ్ సమానాధికరణ సో ఇట్ రిలేట్స్ టు వాట్ ఎవర్ ఇస్ గివన్ బై ద తింగ్ ఓకే అత ఏవ ఇఫ్ ఐఎమ్ సేయింగ్ చైత్రః ఛిద్యతే చైత్ర ఇస్ బీయింగ్ కట్ ఆర్ చైత్రః ఛినత్తి చైత్ర కట్స్ చైత్ర ఇస్ బీయింగ్ కట్ ఉభయత్ర చైత్రః ఇది ప్రథమాంతస్యైవ ప్రయోగః తేన కర్తాపి న జ్ఞాయతే కర్మాపి న జ్ఞాయతే కథం జ్ఞాయతే తింగంతేన జ్ఞాయతే సో ఇన్ బోత్ కేసెస్ చైత్ర ఇస్ వాట్ ఇస్ గివన్ బై ద కర్త సో ఇఫ్ ద థింగ్ గివ్స్ ద కర్త చైత్ర ఇస్ ద కర్త ఇఫ్ ద థింగ్ గివ్స్ కర్మ చైత్ర ఇస్ ద కర్మ తింగ్ సామానాధికరణ్యే ప్రథమ సో అవుట్ ఆఫ్ ద ప్రథమ విభక్తి వి గెట్ ఓన్లీ ద మీనింగ్ ఆఫ్ చైత్రాభిన్న చైత్ర ఇత్యేవ అర్థ ద అభిన్న ఇస్ జస్ట్ ద టెక్నికల్ వర్డ్ సో నన్ అదర్ దాన్ చైత్ర ఇత్యర్థ ఓకే సో ఇదానీ ఏతేషాం కథం అన్వయ సో చైత్ర వృక్షాన్ చేత్స్యతి వ్యాపార కీదృశ ద్వైధీభవనం ఫలం తదనుకూల వ్యాపార ద్వైధీభవనం ఇది ఫలం ఫలే కస్య అన్వయ కర్మణ సో వృక్షాభిన్న కర్మాశ్రయం సో ద్వైధీభవనం సో ద ద్వైధీభవన ద స్ప్లిట్ ఇస్ సీన్ ఇన్ ద ఆబ్జెక్ట్ విచ్ ఇస్ నన్ అదర్ దాన్ ద వృక్ష కీదృశా వృక్షా బహుత్ర సంఖ్యా అవచ్ఛిన్న వృక్షా వృక్షాభిన్న కర్మాశ్రయం ద సంఖ్యా ఆన్ ద కర్మ పద దట్ ఇస్ ద ద్వితీయ విభక్తి గోస్ టు ద కర్మ సో బహుత్ర సంఖ్యావచ్ఛిన్న వృక్షాభిన్న కర్మాశ్రయం యత్ వైదీభవనం తదనుకూల వ్యాపార సో ఫస్ట్ ఇస్ ద ఫల నెక్స్ట్ ద కర్త కహ కర్త చైత్రాభిన్న కర్త్రాశ్రయ సో ఫ్రమ్ ద ప్రథమా విభక్తి వి గెట్ ద ఐడెంటిటీ ఆఫ్ ద కర్త హీఈస్ నన్ అదర్ దాన్ ద చైత్ర సో చైత్రాభిన్న కర్త్రాశ్రయ పునశ్చ ఏకత్వ సంఖ్యావచ్ఛిన్న చైత్రాభిన్న కర్త్రాశ్రయ అంతే కాల భవిష్యత్ కాళిక వ్యాపార సో క శాబ్దబోధ ఎనిబడి శబ్దబోధం వదంతు సరగోపన్ మహోదయ తదనుకూల
ఏకత్వ సంఖ్యా వచ్చిన చైత్రాభిన్న కర్తాశ్రయ భవిష్యత్ కాళిక
బహుత్వ సంఖ్యావచ్ఛిన్న వృక్షాభిన్న కర్మాశ్రయం యద్ ద్వైధీభవనం తదనుకూల ఏకత్వ సంఖ్యావచ్ఛిన్న చైత్రాభిన్న కర్త్రాశ్రయ భవిష్యత్ కాలిక వ్యాపార ఇది శబ్దబోధ అస్య వాక్యస్య సో యు కెన్ గో ఆన్ యాడింగ్ వర్డ్స్ ఇట్ విల్ నాట్ చేంజ్ యు జస్ట్ హావ్ టు సీ హౌ దే రిలేట్ టు ఈచ్ అదర్ సో అత్ర భవతు సో ద మెయిన్ థింగ్ వీవ్ లెర్న్ టుడే ఇస్ ద వైయాకరణ సిద్ధాంతానుగుణం సో దిస్ స్లైడ్ ఇస్ ద వన్ విచ్ వీ హావ్ టు రిమెంబర్ సో ధాతునా ఫలం వ్యాపారశ్చ ఉద్బోధ్యతే తింగ్ ప్రత్యయేన కర్త కర్మ సంఖ్యా కాలశ్చ ఉచ్యతే తత్ర వ్యాపార ప్రధానం ఫలస్య వ్యాపారే కర్తుః व्यापारे अन्वयः, कर्मणः फले, संख्यायाः कर्तरि प्रयोगे कर्तरि, कर्मणि प्रयोगे कर्मणि, कालस्य व्यापारे अन्वयः. सो अन्वयं ज्ञात्वा शब्दबोधः वक्तुं शक्यते. So based on this, we learned how to do the Shabda Bodha for some sentences. So adya abhyasartham kanichana vakyani santi. So etesham vakyana Shabda Bodham likhantu. Okay, you have to write the Shabda Bodha for these. Okay, so it's easier initially to go step by step. If you want to write the whole sentence together, it is fine. But the stepwise is easier for understanding and for knowing how we derive it rather than, you know, having it as one mass. Okay. So, etesham vakyanam shabda bodham vayakarana siddhanta ritya likhantu. Okay. Bhanu Prakash Mahode, prashna hasti no? Now let's
see. Swamiji. Hello.
Can you hear me, ma'am?
Yeah, yeah, I can hear you. Take me.
Hello.
Hello. Yes, I can hear you. Tell me. Nashrayate va. Hariyam.
Hello, can you hear me, ma'am?
Shruyate. Madat.
Yes. So, Swamiji, can we start with the right hand column and end up with the right
hand? Yeah, that is also fine. So what he is asking is, can we start from the lower part and end here? So that is also fine. Actually, that is how it is done normally. The order is not matter. So we can say bhavishyat kalikaha ఏకత్వ సంఖ్యావచ్ఛిన్న చైత్రాభిన్న కర్త్రాశ్రయః బహుత్వ సంఖ్యావచ్ఛిన్న వృక్షాభిన్న కర్మాశ్రయం యద్వైదీ భవనం తదనుకూలః వ్యాపారః తథాపి వక్తుం శక్యతే. దట్ ఇస్ ఆల్సో ఫైన్. సో ఇట్ ఇస్ జస్ట్ అ వే. సో యాజ్ లాంగ్ యాజ్ ద దిస్ థింగ్స్ ద ఫైన్ ఐ మీన్ ద ఆర్డర్ విదిన్ ద థింగ్స్ ఆర్ కరెక్ట్. So these items you can put in any order. So you can say ekatva sankhyavachina chaitra bhinna kartrashrayaha bhavishyat kalikaha bahutva sankhyavachina etc. tadanukulaha vyaparaha. So the order of the second level is interchangeable. Okay. So the second level ones you can put any visheshana in any order. That is fine. Any other questions?
Swamiji, I have a very simple question. I got some from the word chaitraha, and I was wondering what that was really referring to.
So chaitra is just a name. It is a very common name which is used in as example in older texts. Okay, so chaitraha, devadattaha, there are two common names which are commonly used. That's it.
I've seen a thousand
times. Yeah. And Chaitra is also seen, especially in Vyakarana text, we have Chaitra also. So he's just
seen like a time of the year or something like this, like a month or something.
No, I mean, it is based on that, but it means here in this case, it's just a name of a person.
Yeah, so I kind of figured that's what it must be, but it's just like.
Any other questions? Any prashna santiva? Oh, sorry. Yes? Kshamyata. Vadatu.
Rikshavinna karmashrayam athava chaitravinna karmashrayam athava sarvada bahu bhivoyu prayoga bhavati va?
Kase prayoga?
Rikshavinna karmashrayam itukte daidhi bhavanam rupya kriya bhavati. Tasya ashraya tu vriksha.
Satyam. Daidhi bhavanam phalam tadashraya karma.
Atev vrikshadhinna karmashraya athava tathiva chaitradhinna kartashraya atra vyakarangat prayoga tu bahubrihi samasagata hai.
Satyam. Chaitradhinna karta ashraya yasya saha vyaparaha.
And Swamiji, could you give me a better understanding of anukulaha for this?
Anukulaha is, it is just which facilitates. So any vyapara which helps in reaching that phala. So we call the sambandha between the phala and vyapara. So it could be janaka. So usually the Mimamsaka says that janakaha vyaparaha. So the vyapara which generates that phala. In Vyakarana we usually say tad anukulaha. So anything which is helpful, even though it might not be directly generating that phala, say something like, as I said, anything like say lighting the fire or putting a vessel on it or sprinkling water. So any action which facilitates the phala. So tadanukulaha vyaparaha, phalanukulaha vyaparaha, phalajanakaha vyaparaha. So that is also there. So we say that it is vyapara which generates the phala or vyapara which facilitates the phala.
Oh. Okay.
So I am Abhyasaha Kriyatam. So Agrima Varge Anya Siddhantaritya Adeva Karaniamiti Chintitam Kinto Agrima Marge Pashya Mahatya Samayaha Titaha Mimam Sakamate Katham Shabda Bodhaha Tanmate Keke Arthaha Dhatvartha Kaha Tingartha Kaha Tesham Parasparan Vayaha Katham Evam Nayaikanam Mate Katham Kaha Dhatvartha Kaha Tingartha Katham Shabda Bodhaha Iti Agrima Marge Pashya Shivannatvahi Nageshe Nanindya Paramalaghu Vaiyakarana Siddhanta Manjushe Isha Virachyate.